इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। अथ वार्ताः। भारतीय जनता पार्टीति दलस्य केन्द्रीय निर्वाचन समितेः संगोष्ठी नवदिल्ली नगरे दलमुख्यालये गतरात्रौ अभवत्। प्रधानमन्त्री श्रीनरेन्द्रमोदी, केन्द्रीय गृहमन्त्री अमितशाहः, रक्षामन्त्री राजनाथसिंहः, भाजपा राष्ट्राध्यक्षः जेपी नड्डा, दलस्य वरिष्ठनेतारश्च उपस्थिताः आसन्। यस्याः संगोष्ठ्याः उद्देश्यं बिहार विधानसभा निर्वाचनार्थं दलस्य रणनीतिं, प्रत्याशी सूचिंच अन्तिमरूपेण निर्धारयितुम् आसीत्। बिहार निर्वाचनस्य कृते एनडीए दलस्य आसन सहभागसूत्रस्य घोषणायाः अनन्तरं भाजपा दलस्य केन्द्रीय निर्वाचन समितेः संगोष्ठी आयोजिता आसीत्। सत्ताधारी एनडीए इत्यनेन ह्यः एव बिहार विधानसभा निर्वाचनार्थं स्वस्य आसन सहभागसूत्रस्य घोषणा कृता। एतदनुसारं बीजेपी तथा जेडीयू दलद्वयं परस्परं एकोत्तर एकशतम् आसनेषु प्रतिस्पर्धां करिष्यति। लोक जनशक्ति इति दलं ऊनत्रिंशत् आसनेषु प्रतिस्पर्धां करिष्यति। राष्ट्रिय लोकमोर्चा तथा हिन्दुस्तानी आवाम मोर्चा इति दलद्वयं क्रमेण षट् आसनेषु प्रतिस्पर्धां करिष्यति। एनडीए घटबन्धनस्य प्रतिस्पर्धा विपक्षस्य एनडीए घटबन्धनेन भविष्यति, यस्मिन् तेजस्वी यादवस्य नेतृत्वे राष्ट्रिय जनता दलं, कांग्रेस पक्षः तथा राष्ट्रिय कम्युनिस्ट पार्टी इत्यादीनि दलानि च सन्ति। बिहार विधानसभा निर्वाचनं नवम्बर मासस्य 6-11 दिनांकयोः च द्वयोः चरणयोः भविष्यति। मतदानस्य गणना नवम्बर 14 दिनांके निर्धारिता अस्ति। प्रधानमन्त्री तथा भाजपा दलस्य वरिष्ठनेता श्रीनरेन्द्रमोदी बुधवासरे बिहारस्य स्वस्य भूतस्तरीय दल कार्यकर्तृभिः सह वार्तां करिष्यति। सामाजिक माध्यम सन्देशे श्रीमोदी दलस्य कार्यकर्तृभ्यः मेरा बूथ सबसे मजबूत इत्यस्मिन् अभियाने सम्मिलितुं स्वपरामर्शं च दातुम् अनुरोधं कृतवान्। प्रधानमन्त्रिणा इदमपि उक्तं यत् सः केषाञ्चन चयनित कार्यकर्तृभिः सह तेषां परामर्शेषु प्रत्यक्षतया संवादं करिष्यति। केन्द्रीय गृहमन्त्री अमितशाहः अद्य आदिवसं राजस्थानस्य भ्रमणार्थं जयपुरम् आगमिष्यति। स्वस्य भ्रमणकाले सः नूतनानाम् आपराधिक विधीनां, भारतीय न्यायसंहिता, भारतीय नागरिक सुरक्षा संहिता, भारतीय साक्ष्य अधिनियमानां च कार्यान्वयनस्य एकवर्षपूर्तौ आयोजितस्य राज्यस्तरीय प्रदर्शनस्य उद्घाटनं करिष्यति। जयपुरनगरे अद्यारभ्य 18 दिनांकपर्यन्तम् आयोजिते षड्दिवसीय प्रदर्शने नूतनविधीनां प्रमुख प्रावधानानां प्रकाशनं भविष्यति। सम्पूर्णे राजस्थाने तेषां कार्यान्वयनस्य प्रगतिः च प्रदर्शिता भविष्यति। प्रदर्शन्याः उद्घाटनानन्तरं श्रीशाहः जनसभामपि सम्बोधयिष्यति। गाजायुद्धस्य समाप्त्यर्थं शान्तिसन्धेः अन्तिमरूपेण निर्धारणं लक्ष्यीकृत्य अन्ताराष्ट्रियसम्मेलनम् अद्य मिस्रस्य शर्म एल शेख इत्यस्य रेडसी रेसोर्ट सिटी मध्ये भविष्यति। मिस्रदेशस्य राष्ट्रपतिः अब्देल फताह अल सीसी, अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः च अस्य समागमस्य सह अध्यक्षतां करिष्यतः, यस्मिन् विंशतितः अधिकेभ्यः देशेभ्यः नेतारः आगमिष्यन्ति इत्यपेक्षा अस्ति। अस्मिन् सम्मेलने संयुक्तराष्ट्रसंघस्य महासचिवः एंटोनियो गुटेरेस अपि उपस्थितः भवितुम् अर्हति। शिखरसम्मेलने गाजापट्ट्यां शत्रुतायाः समाप्तिः, क्षेत्रीय शान्तिप्रयासानाम् उन्नतिः, सम्पूर्णे पश्चिमे एशियायां सुरक्षायाः स्थिरतायाः च नूतनचरणस्य आरम्भः इति च विषयेषु चर्चा भविष्यति। अफगानिस्तानस्य विदेशमन्त्री अमीर खान मुत्तकी पाकिस्तानं प्रत्यादिष्टवान् यत् यदि इस्लामाबादः सुसम्बन्धं शान्तिं च न इच्छति तर्हि काबुलस्य पार्श्वे अन्यविकल्पाः सन्ति। इति वार्ताः।